प्रजापतिगुं हवामहे कविं कवीनामुपमश्रवस्तवम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आयः शृण्वन्नोतिभिः सेदसादनम् प्रणो देवी सरस्वती वाजिनीवती धीनामवित्रयवतो गणेशाय नमः सरस्वत्यै नमः श्रीगुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय ॐ नमस्ते रुद्रमण्यव उतोत इषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातरिषु शिवतमा शिवम् बभूवते धनुः शिवाच द्रव्यायातवतया नो रुद्रमृडया याते रुद्र शिवा तनुर्घोरा पापकाशिनी दयानस्तनुवाचन्तमया गिरिशन्ताभिचाकशी यामिषुम् गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाम् गिरित्रताम् कुरु माहि गुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छावदामसे यथा नः सर्वमिज्जगद यक्ष्मगुम् सुमना असत् अद्य वोचदति भक्ता प्रथमो दैव्योऽभिषक् अहेगुश्च सर्वाञ्जम्भयन् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उत बभ्रुस्सु मङ्गलः ये जेमागुम् रुद्रा अभितो दिक्षु श्रितात् सहस्रशो वैशागुम् हेणीमहे असव्यो वदर्पति नीलग्रीवो विलोहितः उतैनम् गोपा अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि च दृष्टो मृढयादिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयोराग्नियोर्ज्याम् यास्य ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगुम् सहस्राक्षशतेषुधे निषेर्य शल्यानामुखा शिवो न सुमना भव विज्यम् धनुः कपर्दिनो विशल्यो बाणवागुम् उता अनेशन्नस्येष वाभुरस्य निषङ्गतिः याते हेतुर्मे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुजा नमस्ते अस्त्वायुधायानादताय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान् वृणक्तु विश्वतः अधो यगिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यवाहवे सेनान्ये दिशाम् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सत्पिञ्जलाय त्रिषेमते पथीनाम् पतये नमो नमो बभ्रुषाय विव्याधिनेन्नानाम् पतये नमो नमो हरिकेशायोपवेदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्राय तथा विनेक्षेत्राणां पतये नमो नमः सूताय हन्याय वनानां पतये नमो नमो रोहिताय स्तपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयति पत्तीनां पतये नमो नम कृष्णवेताय धावति सत्त्वनां पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे सेनानां पतये नमो नमो निषङ्गिण इषुधिमते तत्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः स्तृकाविभ्यो जिघागुंसद्भ्यो मुष्णतां पतये नमो नमो शिवद्भ्यो नक्तं चरभ्य प्रकृन्दानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम इषुमध्योध भाविभ्यश्च वो नमो नम आदन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्य शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहदेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपदेभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्य कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयुभ्य श्वनिभ्यश्च वो नमो नमश्वभ्यश्वपतिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च क्षितिकण्ठाय च नमः कपर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीदुष्टमाय जेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयते च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आचवेचाधिराय च नमः शीघ्रियाय च जेभ्याय च नमः ओर्म्याय च वत्स्वन्याय च नमः श्रोतस्याय च द्वेभ्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जगन्याय च बुद्धियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च अवधान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शूराय च वभिन्दते च नमो वर्मिणे च वरोधिने च नमो बिल्विने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च अनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमः तेष्णे च वेजायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्मियाय च नमो वास्तव्याय च वास्तुपाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः चङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्थ्याय च कोल्याय च नमः पाद्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः शष्प्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नम हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयनाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च मृत्याय च नमस्तल्प्याय च गेक्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुन्दव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय च लप्याय च नमः ओर्व्याय च सोर्म्याय च नमः पर्ण्याय च पर्णछद्याय च नमो पगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वत्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विजिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः द्रापे अन्धसस्पदे दरिद्रन्नीललोहिता एषाम् पुरुषाणामेषाम् पशूनाम् माभिर्मा रोमो एषाम् किञ्चन मम యాదేరుద్ర శివా తనో శివా విశ్వాహ భేషజే శివారుద్రస్య భేషజేంద్రయానో మృణజీవసే ఇమాగుం రుద్రాయ దవదే కవర్తినే క్షయద్వీరాయ ప్రభలామహేమతిం వ్యధానశ్యమషద్విపదే చతుష్పదే విశ్వం పుష్టం గ్రామే అస్మిన్ననాతురం మృడానో రుద్రోదనో మయస్కృతి క్షయద్వీరాయ నమసా విధేమతే యచ్చం చ యోశ్చ మనురాయజే పితా దదశ్యామతవ రుద్ర ప్రణీతో మానో మహాంతముతమానో అర్భకం మాన ఉక్షంతముతమాన ఉక్షితం మానో వధే పితరం మోద మాతరం ప్రియామానస్తనువో రుద్రరీరిషః మానస్తో కేతనయే మాన ఆయుషి మానో గోషు మానో అశ్వేషురీరిషః వీరాన్మానో రుద్రభామితో వదేర్హవిష్మంతో నమసా విధేమతే ఆరాత్తే గోగ్నముత పూరుషగ్నే క్షయద్వీరాయతుం నమస్మేతే అస్తో రక్షాజనో అలిజదేవ బ్రూయధాజన శర్మ యచ్చద్విపరుహాః సుహిశ్రుతం గర్తతదం యువానం మృగన్న భీమముపహత్తుముగ్రం మృగాజరిత్రే రుద్రస్తవానో అన్యందే అస్మన్నివ పంతు సేనాః పరిణో రుద్రస్య హేతు బృణత్తు పరిత్రేషస్య దుర్మదిరఘాయో అవస్థిరా మఘవద్యస్తనుష్మీర్వత్తోకాయతనయాయ మృడయా మీదుష్టమశివతమశివో నః సుమనా భవ పరమే వృక్ష ఆయుధం నిధాయ కృత్యం వసానమాచర పినాకం బిభ్రదాగహి వికిరిత విలోహిత నమస్తే అస్తు భగవః యాస్తే సహస్రగుం హేదయోన్యమస్మన్నివ పంతు తాః సహస్రాణి సహస్రధా బాహువోస్తవ హేదయః తాసామీశానో భగవః పరాజీనాముఖాకృతే సహస్రాణి సహస్రశో యే రుద్రా అధిభూమ్యాం తేషాగుం సహస్రయోజనే వధన్వాని తన్మసే అస్మిన్మహత్యర్ణవేంతరిక్షే భవా అధే నీలగ్రీవాశితికంఠా శర్వాలః క్షమాచరాః నీలగ్రీవాశితికంఠాదివగుం రుద్రా ఉపశ్రితాః యే వృక్షేషు సస్పింజరా నీలగ్రీవా విలోహితాః యే భూతానామధిపతయో విశికాదక్కపర్దినః యే అన్నేషు వివిధ్యంతి పాత్రేషు పిబతో జనాన్ యే పథాం పరిరక్షయ ఐలభృదాయభ్యుధః యే తీర్థాని ప్రజలంతి శృకావంతో నిషంగిణః య ఏతావందస్య భూయాగుంసస్య దిశో రుద్రావితస్థిరే తేషాగుం సహస్రయోజనే వదన్వాని తన్మధే నమో రుద్రేభ్యో యే పృథివ్యాం యేందరిక్షే యే దివియే చావన్నం వాతో వరుషమిషభస్తేభ్యో దశ ప్రాచేర్దశ దక్షిణాదశ ప్రతిచేర్దశోదేచేర్దశోర్ధ్వాస్తేభ్యో నమస్తే నో మృణయందు దేయం ద్రిష్మాయశ్చ నో ద్వేశ్రితం వోజం భేదధామి త్ర్యంబకం యజామహే సుగంధిం పుష్టివర్ధనం ఉర్వారుకమివ బంధనాన్ మృత్యోర్ముక్షీయమామృతాత్ యో రుద్రో అగ్నౌ యో అప్సుయ ఓషధీషు యో రుద్రో విశ్వా భువనాదివేశ తస్మై రుద్రాయ నమో అస్తు ఏతే సహస్రమయుతం పాశారుత్యోర్మత్యాయ హంతవే తాన్యజ్ఞస్య మాయయా సర్వానమయజామహే మృత్యవే స్వాహా మృత్యవే స్వాహా. प्राणानाम् ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्येनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमुश्चु हि यस्सृषुस्सु धन्वायो विश्वस्य क्षयदिवेशजस्य यक्ष्वा महेशौ मनसाय रुद्रन्नमोभिर्देवमसुरन्दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभे च जो जगुम् शिवाभिमरुषणः ॐ शान्ति शान्ति शान्तिः ॐ अध सूर्याथर्वाङ्गिरसम् व्याख्यास्यामः ब्रह्मा ऋषिः गायत्री छन्दः आदित्यो देवता हंसः सोऽहमग्निनारायणयुक्तम् बीजम् हृल्लेखा शक्तिः वियदादिसर्गसंयुक्तम् कीलकम् चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट्स्वरारूढेन बीजेन षडङ्गम् रक्ताम्बुजसंस्थितम् सप्ताश्वरथिनम् हिरण्यवर्णम् चतुर्भुजम् पद्मद्वयाभयवरदहस्तम् कालचक्रप्रणेतारम् श्रीसूर्यनारायणम् य एवम् वेद स वै ब्राह्मणः ॐ भूर्भुवः सुवः तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सूर्य आत्मा जगतस्तस्तुषस्य सूर्याद्वै खल्विमानि भूतानि जायन्ते सूर्याद्यज्ञः पर्जन्योन्नमात्मा नमस्ते आदित्या त्वमेव प्रत्यक्षम् कर्म कर्तासि त्वमेव प्रत्यक्षम् ब्रह्मासि त्वमेव प्रत्यक्षम् विष्णुरसि त्वमेव प्रत्यक्षम् रुद्रोऽसि त्वमेव प्रत्यक्षम् मृगसि त्वमेव प्रत्यक्षम् यजुरसि त्वमेव प्रत्यक्षम् सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वम् छन्दोऽसि आदित्याद्वायुर्जायते आदित्याद्भूमिर्जायते आदित्यादापो जायन्ते आदित्याज्योतिर्जायते आदित्याद्व्योमदिशो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्वेदा जायन्ते आदित्यो वा एष एतन्मण्डलम् तपते असावादित्यो ब्रह्मा आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः आदित्यो वै व्यानसमानो दानोपानः प्राणः आदित्यो वै श्रोत्रत्वक्चक्षुरसनघ्राणाः आदित्यो वै वाक्पाणिपादपायोभस्ताः आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनविसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानघन आदित्यः नमो मित्राय भानवे मृत्योर्मा पाहि ब्राजिष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु सूर्येलयम् प्राप्नुवन्ति यः सूर्यः सोऽहमेव च चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः चक्षुर्धाता दधातु नः आदित्याय विद्महे सहस्रकिरणाय धीमहि तन्नः सूर्यः प्रचोदयात् सविता पुरस्तात् सविता पश्चात् सवितोत्तरात् सविता धरातात् सविता नः सुमतु सर्वतातिगुं सविता नो रासताम् दीर्घमायुः ओमित्येकाक्षरम् ब्रह्मा घृणिरिति द्वे अक्षरे सूर्य इत्यक्षरद्वयम् आदित्य इति त्रीण्यक्षराणि एतस्यैव सूर्यस्याष्टाक्षरो मनुः यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते अलक्ष्मीर्नश्यते अभक्ष्यभक्षणात् पूतो भवति अगम्यागमनात् पूतो भवति पतितसम्भाषणात् पूतो भवति असत्सम्भाषणात् पूतो भवति मध्याह्ने सूर्याभिमुखः पठेत् सद्योत्पन्न पञ्चमहापातकात् प्रमुच्यते सैषा सावित्रीम् विद्या न किञ्चिदपि न कस्मैचित् प्रशंसयेत् येता महाभाग प्रातः पठति स भाग्यवान् जायते पशून् विन्दते वेदार्थम् लभते त्रिकालमेतज्जप्त्वा क्रतुषत फलमवाप्नोते हस्तादित्ये जपति स महामृत्युम् तरति स महामृत्युम् तरति य एवम् वेद इत्युपनिषत् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महीमहीषाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्तिः